प्रियाः श्रोतारः, आकाशवाण्याः सञ्चालिते संस्कृत साप्ताहिकीति कार्यक्रमे अहम् पुनीत त्रिपाठी कार्यक्रमस्य उद्घोषकः। सर्वेषां श्रोतृणां हार्दिकं स्वागतं व्याहरामि। श्रोतारः, आयान्तु अस्य संस्कृत साप्ताहिकीति कार्यक्रमस्य शुभारम्भं मंगलाचरणेन सुभाषित वाक्येन सह कुर्मः। यः अर्थेन सह गायति, मम सहयोगिनी निधि तिवारी।
कलहान्तानि हम्र्याणि कुवाक्यानां च सौहृदम्, कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्। भावार्थ, झगड़ों से परिवार टूट जाते हैं। गलत शब्द के प्रयोग करने से दोस्ती टूट जाती है। बुरे शासकों के कारण राष्ट्र का नाश होता है। बुरे काम करने से यश दूर भागता है।
आगच्छन्तु साम्प्रतम् अग्रेसरावः प्रसंगानुभागं प्रति। भागोयम् संगीत स्वरेण सह गायति अस्माकं सहयोगी नरेन्द्र दत्त सेमवालः।
जय भगवती देवी नमो वरदे, जय भगवती देवी नमो वरदे, जय पाप विनाशिनी बहुफलदे, जय पाप विनाशिनी बहुफलदे, जय शुंभनिशुंभ कपाल धरे, प्रणमामि तु देवी नरार्ति हरे, जय चंद्र दिवाकर नेत्र धरे, जय चंद्र दिवाकर नेत्र धरे, जय पावक भूषित वक्त्र वरे, जय भैरव देह मिलीन परे, जय अंधक दैत्य विशोष करे, जय भगवती देवी नमो वरदे, जय पाप विनाशिनी बहुफल दे, जय शुंभनि शुंभ कपाल धरे, प्रणमामि तु देवी नरार्ति हरे, प्रणमामि तु देवी नरार्ति हरे।
धन्यवादाः भवते। प्रियाः बान्धवाः, अधुना देशैः विदेशैश्च सम्बद्धाः वार्ताः शृण्वन्तु। सारांशरूपेण याः कथयति अस्माकं सहयोगिनी कामना झाः।
प्रधानमन्त्री नरेन्द्र मोदी डिजिटल इण्डिया इत्यभिनामधेयकस्य अङ्कीय भारतोपक्रमस्य सफलतायाः नववर्षाणां सम्पूर्तयावसरे प्रसन्नताम् अभिव्यक्तवान्। राष्ट्रिय परीक्षा अभिकरणेन NTA इत्यनेन NEET UG इति पुनः परीक्षायाः अनन्तरं 63,500+1,000 परीक्षार्थिनां संशोधित परिणामः उद्घोषिताः। विदेशमन्त्री डॉ S.जयशंकरः कजाकिस्तान देशस्य अस्ताना नगरे स्वीय समक्षेण रूस देशस्य विदेश मन्त्रिणा सर्गेय लावरोव इत्यनेन सह वर्तमानकाले युद्ध क्षेत्रीय स्थितानां सहैव भारतीय नागरिकाणां विषये महतीं चिन्तां प्रकटितवान्। केन्द्रीय मन्त्री अश्विनी वैष्णवः वैश्विक भारत AI शिखर सम्मेलनस्य उद्घाटनं कृतवान्। झारखंड मुक्ति मोर्चायाः कार्यकारी अध्यक्षः हेमंत सोरेनः झारखंडस्य मुख्यमन्त्रित्वेन शपथं स्वीकृतवान्।
ज्ञानपिपाशवः मित्राणि, समागतः सम्प्रति ज्ञानविज्ञानप्रभागः। एतस्मिन् विभागे विभिन्नानां विदुषाम् अनुभवान् ज्ञानानि च शृण्वन्ति भवन्तः। तावत् सौभाग्यात् आकाशवाण्यां स्वीय साक्षात्काराय भवताम् आत्मनान् अनुगृहीतुम् विराजन्ते अत्र केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य नाट्य शास्त्र विभागस्य विभागाध्यक्षाः डॉक्टर प्रसाद भिड़े महाभागाः। एतैः विद्वद्भिः सह संवादं समाचरति सहयोगिनी निधि झा।
प्रियाः श्रोतारः, अद्यास्माभिः सह संवादाय उपस्थिताः सन्ति डॉक्टर प्रसाद भिड़े महाभागाः। असौ महाराष्ट्र सर्वकारेण संस्कृत नाट्य लेखनं तथा निर्देशनं अनयोः कृते विविधैः पुरस्कारैः गौरवितः। सम्प्रति केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरे नाट्य शास्त्रानुसन्धान केन्द्रस्य समन्वयकत्वेन कार्यरतो वर्तते। प्रसाद महोदयाय सस्वागतं, स्ववर्धापनं च नमः।
प्रणामः
महोदय। मम तावत् प्रथमः प्रश्नः वर्तते यत् भवान् नाट्यशास्त्रेण सम्बद्धः शास्त्रस्यास्य निष्णातः आचार्यः, पुनश्च नाट्यशास्त्रशाखाः समाधृत्य पारस्परिकाध्ययनशोधकार्यादीनां प्रबलः समर्थकः अपि। सन्दर्भेऽस्मिन् ज्ञातुम् अभिलषे सन्ति कीदृशाः अनुभवाः भवताम्, पुनश्च कतिभिश्च उदाहरणैः नाट्यशास्त्रस्य वैविध्यानि वैशिष्ट्यानि च विज्ञापयतु कृपया।
नाट्यशास्त्रस्य विद्वान् तु अहं नास्मि, अहम् एकः सामान्यः शैलूषः अस्मि, अभिनेता अस्मि। संस्कृतभाषया सह अपि च संस्कृतशास्त्रैः सह मम सम्बन्धः नाट्यकलायाः कारणादेव स्थापितः। महाविद्यालयीने जीवने मया अभिज्ञानशाकुन्तलस्य चतुर्थे अङ्के शारङ्गरवस्य भूमिका अभिनीता। तदा अनुभूतं यत् संस्कृतनाटकानि अपि वर्तमानकाले न केवलम् अध्येतव्यानि अपि तु प्रदर्शनीयानि। नाट्यशास्त्रे नाट्यशास्त्रस्य यानि मूलतत्त्वानि सन्ति तासाम् औचित्यम् आधुनिकरङ्गभूम्यामपि वर्तते एव। यदा यदा मया छात्रैः सह नाटकं कृतं तदा तदा प्रायः ये कलाकाराः आसन् तेषु केचन एव संस्कृतं जानन्ति स्म। सर्वे प्रायः अभिनये कुशलः, परं तेषु भाषाकौशलं न आसीत्। नाटकस्य कारणात् तैः अनुभूतं यत् संस्कृतभाषा न क्लिष्टा न च कठिना। संस्कृतरङ्गभूमेः संस्कृतनाटकानां संस्कृतभाषाविषये अपि च भारतीयज्ञानपरम्पराविषये यत् महत्त्वं वर्तते तद् एतदेव इति मम मतम्।
बहु समीचीनं महाभागाः। मान्यवर्याः, किम् अद्यत्वे प्रयोगशीलकलायां नाट्यशास्त्रस्य प्रभावः विद्यते न वेति इति मे जिज्ञासा।
बहु प्रभावः अद्य अपि दृश्यते। यथा नाट्यशास्त्रे संहितारचना कथं भाव्या, तस्य विस्तृतं वर्णनम् आचार्यैः कृतमस्ति। बीज बिन्दु पताका प्रकरी आदि ये बिन्दवः सन्ति, एते सर्वे आधुनिके काले अपि चित्रपटानां कथाः वर्तन्ते, तत्र दृश्यन्ते। अपि च अभिनयस्य यानि मूलतत्त्वानि सन्ति, चतुर्विधा अभिनयः इति मतः, तर्हि आङ्गिकं वाचिकम् आहार्यं सात्विकम्, एते सर्वे विधाः अद्य अपि दृश्यन्ते एव। तर्हि नाट्यशास्त्रस्य औचित्यं वर्तते एव, भविष्ये अपि भविष्यति एव।
महाभागाः, प्रश्नक्रमे मम अन्तिमोऽयं प्रश्नः वर्तमानसमये संस्कृतरङ्गभूमि कीदृशी भाव्या?
वर्तमानसमये संस्कृतरङ्गभूमि कीदृशी भाव्या? प्रथमं तावत् अस्माभिः चिन्तनीयं यत् वर्तमानसमये संस्कृतरङ्गभूमेः किमपि औचित्यं वर्तते वा न वा, संस्कृतभाषया संस्कृतनाटकानि प्रयोक्तव्यानि वा न वा। मम मतं यत् संस्कृतरङ्गभूमेः औचित्यं वर्तते एव, यतोहि संस्कृतनाटकेषु यः आशयः नाट्यकारैः निर्मितः तस्य महत्त्वम् अद्यापि दृश्यते। शाकुन्तले पञ्चमे अङ्के शारङ्ग्रवः वदति शकुन्तलां प्रति, अज्ञातहृदयस्यैवं वैरी भवति सौहृदम् इति। येषां हृदयानि न ज्ञातानि तैः सार्धं यदि मित्रता स्थापिता, सौहृदं स्थापितं, तर्हि अन्ततो गत्वा तत् वैरभावे एव परिवर्तते। साम्प्रतिके काले फेसबुक, इन्स्टाग्राम् आदि माध्यमेषु अज्ञातहृदयेषु यदि मित्रता स्थापिता तर्हि अन्ततः किं भवति तद् वयं सर्वे जानीमः। एतत् उदाहरणम् एकमेव, परं तत् पर्याप्तं। संस्कृतनाटकेषु यः आशयः वर्तते सः सार्वकालिकः इति मतं स्थापयति। अतः संस्कृतनाटकानाम् औचित्यं वर्तते, संस्कृतनाटकानि प्रदर्शनीयानि एव, परं तेषां प्रदर्शनं कथं भवेत् इति विषये किञ्चित् चिन्तनं करणीयम्। कथमस्ति, शास्त्रे यथा वर्णितमस्ति तथा एव प्रयोगः यदि कृतः, यदि क्रियते, तर्हि विदुषां कृते सः आनन्ददायकः भवेत्। परं सामान्यजनानां किम्? संस्कृतभाषायाः प्रसारः यदि सामान्यजनेषु करणीयः तर्हि यथा सामान्यरसिकाः अपि आनन्दम् अनुभवन्ति तादृशानि नाटकानि करणीयानि इति मम मतम्। अतः एकतः अभिजातसंस्कृतनाटकानां प्रयोगः करणीयः, नाट्यशास्त्रम् अनुसृत्य एव प्रयोगः करणीयः, यतोहि तदेव अस्माकम् अमूल्यं धनम्। परम् अन्यतः संस्कृतरङ्गभूम्यामपि नवाचारः आवश्यकः, नूतनः प्रयोगः आवश्यकः। एतत् नाविन्यं लेखने आवश्यकं, नाम संहितायां स्वरूपे आवश्यकं, नाटकानां प्रदर्शने आवश्यकम्, अपि च आशये अपि नाविन्यम् आवश्यकम्। वर्तमानसमस्यानां निराकरणं यदि संस्कृतनाटकैः भवेत् तर्हि तस्य अपि साहित्ये एकं विशिष्टं महत्त्वं भवेदेव। तर्हि लेखनं, प्रदर्शनम्, आशयः च एतेषां सर्वेषाम् आयामानां सम्यक् चिन्तनं कृत्वा संस्कृतनाट्यकारैः, कुशीलवैः च अग्रे गन्तव्यम् इति मम मतम्। भोपालपरिसरे नाट्यशास्त्र अध्ययन अनुसन्धानकेन्द्रं वर्तते। अस्मिन् केन्द्रे अपि वयम् अनेन एव विचारेण कार्यरतः स्म। संस्कृतरङ्गभूम्याः पुनरुज्जीवनं भवेत्, अभिजातनाटकानां भारते विविधप्रान्तेषु याः लोककलाः वर्तन्ते ताः अनुसृत्य प्रयोगः करणीयः, अपि च नूतनानि नाटकानि करणीयानि इति अस्माकम् उद्देशद्वयं खलु। तदनुसृत्य विविधाः कार्यशालाः अपि च पाठ्यक्रमाः, एतेषां नियोजनम् अत्र अस्माभिः कृतमस्ति। अन्ते मम गुरुवर्याः प्रभाकरभात्खण्डे महोदयः, महाराष्ट्रे साम्प्रतं विद्यमानः महान् संस्कृतनाट्यकारः, तेषाम् अन्ते मम गुरुवर्याणां मतमेकं सन्देशं वा अत्र दातुमिच्छामि। प्रभाकरभातखण्डे इति महाराष्ट्रे महान् आधुनिकसंस्कृतनाट्यकारः खलु, मुक्ता इति लोकनाट्ये तैः लिखितमस्ति यत् संस्कृतभाषा न केवलं विद्वद्धनम्, सा यदि लोकभाषा करणीया तर्हि लोकानां शब्देषु संस्कृतभाषायां नाटकानि निर्मातव्यानि।
साधु महोदयः, भवद्भिः इयम् अमूल्यमपि नैजं समयम् अस्मभ्यं प्रदत्तम्, अतः धन्यतां वचांसि आविष्करोमि भवतां प्रति। धन्यवादाः।
धन्यवादः।
श्रोतारः, संस्कृतं प्रति जिज्ञासेभ्यः श्रोतृगणेभ्यः अधुना प्रस्तुतमिदं दिग्दर्शनम् अनुभागोऽयम्। कथ्यते मम सहयोगिना पुरुषोत्तम शर्मणा।
मंगलवासरे जुलाई मासस्य द्वितीये दिने केन्द्रीय संस्कृत विश्वविद्यालयेन नवागन्तुकेभ्यः विद्यार्थिभ्यः दीक्षारम्भ कार्यक्रमः आमानितः। विश्वविद्यालयस्य नवदिल्लीस्थे मुख्यालये आभासीय माध्यमेन आयोजिते कार्यक्रमे एकलव्य परिसरस्य विद्यार्थिनः भागं स्वीकृतवन्तः। सोमवासरे जुलाई मासस्य प्रथमे दिने वेब्स इत्यनया संस्थया अन्ताराष्ट्रिय संगोष्ठी आयोजिता। अस्याम् संगोष्ठ्याम् शैवाधारितम् तत्त्वम् तस्य आधुनिक विज्ञाने प्रभावमाधृत्य विद्वद्भिः परिचर्चा कृता। केन्द्रीय संस्कृत विश्वविद्यालयस्य लखनऊ परिसरे पञ्चदिवसीया संस्कृत वीलॉग इत्याख्या कार्यशाला समायोजिता। शुक्रवासरे सम्पन्नायाम् कार्यशालायाम् छात्रैः सामाजिक संचार पटलेषु संस्कृत भाषायाम् दृश्याङ्कन प्रसारणस्य प्रशिक्षणम् प्राप्तम्। दूरस्थमाध्यमेन संस्कृताध्ययनाय केन्द्रीय संस्कृत विश्वविद्यालयस्य मुक्त स्वाध्याय पीठे संस्कृत भाषायाः शास्त्राणां च अध्ययनाय आन्तर्जालिक पाठ्यक्रमेषु प्रवेशः आरब्धः। प्रवेशाय अगस्त मासस्य अष्टमो दिवसः अन्तिमावधिः विद्यते।
अस्माकम् ऐक्य भावयुताः श्रोतृगणाः, अस्तु, एक भारत श्रेष्ठ भारत इत्याख्ये प्रभागेपि नानाविधानि वाक्यानि ऐक्य भावयुतासु भाषासु कथयति मम सहयोगी दीपकः सोलंकी।
संपूर्ण विश्व एक परिवार है, हिंदी। वसुधैव कुटुंबकम्, संस्कृत। सयलो संसारो परिवारो अत्थि, प्राकृत। उलगम अनेतुम उरे कुटुंबम, तमिल। संपूर्ण विश्वमु उक कुटुंबमु, तेलुगु। लोगम उरु कुटुंबमानम, मलयालम। आखु संसार एक कुटुंब छे, गुजराती। संसार में सत्य ही सारभूत है, हिंदी। संसारे सत्यमेव सारभूतम, संस्कृत। सच्चम लोयम्मी सारभूतम, प्राकृत। उन्मये इंदवलयन अडिपड़ई, तमिल। ई विश्वमलो सत्यमे मूलमैनदि, तेलुगु। सत्तमाण इलोग तिंदे सत्ता, मलयालम। आ विश्वमा सार सत्य छे, गुजराती।
प्रियाः श्रोतारः, संप्रति गमनवेला समागतास्ति। वयं सर्वे कालस्य वशीभूताः स्म, तथा च यदा वयं कस्यापि वशे भवामः तर्हि निर्धारित सीम्नि एव निवसितव्यम्। अस्माभिः तावत् अस्य कार्यक्रमस्यापि प्रकल्पित समये एव कार्य निष्पादनं करणीयम्। एतदर्थम् अद्यतनीयस्य कार्यक्रमस्य अवसानावधौ अहम् अनुरुन्धे यत् भवन्तः सर्वे आज्ञापयन्तु अग्रिमे सप्ताहे नवीनैः वस्तुभिः सह पुनः उपस्थिताः भविष्यामः। यदि भवतां समेषां मनसि कार्यक्रमं निध्याय कोऽपि विचाराः समुत्पन्नाः भवन्ति उत वा मार्गदर्शनानि सम्मुखे आगतानि तावद्भवद्भिः सर्वैः निःसङ्कोचेनैव निजविचारान् अस्माकम् ईमेल सङ्केते nhd@gmail.com इत्यत्र प्रेषयन्तु। तर्हि स्वीयोद्घोषकम् पुनीत त्रिपाठिनम् गमनाय अनुज्ञापयन्तु। पुनर्मिलामः, तावत् नमो नमः। जयतु संस्कृतम्, जयतु भारतम्।